इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। प्रधानमन्त्रिणा नरेन्द्रमोदिना ह्यः आन्ध्रप्रदेशस्य कुरुनूल नगरे प्रायः सार्ध चतुश्शतोत्तर त्रयोदश सहस्र कोटिरूप्यकाणां बहुविध विकास परियोजनानां उद्घाटनं शिलान्यासञ्च कृत्वा परियोजनाः राष्ट्रार्पिताः। एते प्रकल्पाः उद्योगक्षेत्रेषु, विद्युत्प्रेषणक्षेत्रेषु, मार्गेषु, रेलमार्गेषु, रक्षानिर्माणक्षेत्रेषु, पेट्रोलियम्, प्राकृतिक ईंधन इत्येतेषु च क्षेत्रेषु विस्तृताः सन्ति, येन क्षेत्रीय संरचनायाः वर्धनार्थम् औद्योगिकीकरणस्य गतिं वर्धितुं राज्ये सर्वसमावेशक सामाजिक आर्थिक वृद्ध्यै च सर्वकारस्य प्रतिबद्धतां प्रदर्शयति। अस्मिन् अवसरे जनसमूहं सम्बोधयन् प्रधानमन्त्री अवदत् यत् आन्ध्रप्रदेशः द्रुतगत्या विकासस्य मार्गे अग्रे गम्यमानोऽस्ति इति। स्वच्छऊर्जायाः विद्युदुत्पादनस्य च क्षेत्रे भारतस्य द्रुतगत्या प्रगतिं प्रधानमन्त्रिणा अधोरेखितम्। आन्ध्रप्रदेशस्य प्रौद्योगिकीय विकासे प्रवदन् श्रीमोदी कुरुनूलनगरं भारतस्य प्रथमं ड्रोन हब इति रूपेण प्रतिष्ठापयितुं राज्यस्य प्रयत्नान् प्रशंसितवान्। विशाखापत्तनम् नगरं राष्ट्रस्य प्रथमं कृत्रिमबुद्धिसम्पर्क केन्द्रम् इति भवितुं प्रधानमन्त्रिणा स्वदूरदृष्टिं प्रकाशितम्।
आज भारत की और आंध्र प्रदेश की स्पीड और स्कोप इसको पूरी दुनिया देख रही है। आंध्र प्रदेश में गूगल ने बड़ा निवेश करने का ऐलान किया है। गूगल यहां हमारे आंध्र प्रदेश में भारत का पहला आर्टिफिशियल इंटेलिजेंस हब बनाने जा रही है।
बिहार विधानसभा निर्वाचनस्य प्रथम चरणाय नामांकनस्य अद्य अन्तिमा तिथिः अस्ति। आहत्य त्रिचत्वारिंशदधिक द्विशतासनेषु एकविंशत्यधिकैकशतासनानां कृते अस्मिन् चरणे नवम्बर 6 दिनांके मतदानं भविष्यति। प्रथमे चरणे पटना, दरभंगा, मुजफ्फरपुर, गोपालगंज, भोजपुर मण्डलानि च समाविष्टानि सन्ति। श्वः नामांकनपत्राणां परीक्षणं भविष्यति तथा च नामांकनपत्राणां प्रत्यावर्तनस्य अन्तिमा तिथिः अक्टूबर मासस्यैव 20 दिनांकः अस्ति। द्वितीयचरणस्य मतदानं नवम्बर मासस्य 11 दिनांके भविष्यति। मतगणना च नवम्बर मासस्य 14 दिनांके भविष्यति। मुख्यमन्त्रिणः भूपेन्द्र पटेलस्य मन्त्रिमण्डले नवनिर्वाचिताः मन्त्रिणः अद्य शपथवचनानि स्वीकरिष्यन्ति। शपथग्रहणसमारोहः गान्धीनगरस्य महात्मामन्दिरे राज्यपालस्य आचार्यः देवव्रतः इत्यस्य उपस्थितौ भविष्यति। राज्यपालः राज्यमन्त्रिमण्डलस्य विस्तारे सम्मिलितेभ्यः मन्त्रिभ्यः पदस्य गोपनीयतायाः च शपथवचनानि प्रदास्यति। राष्ट्रपतिः द्रौपदी मुर्मू अद्य नवदिल्ल्याम् आदिकर्मयोगी अभियानस्य विषये आयोजिते राष्ट्रियसम्मेलने भागं ग्रहीष्यति। सम्मेलनस्य केन्द्रबिन्दुः 30-2000 वर्षस्य जनजातीय ग्रामदृष्टिः विचारात् कार्यान्वयने इति भविष्यति। आयोजनस्य प्रमुखम् आकर्षणं 30-2000 वर्षस्य जनजातीय ग्राम परिकल्पनाः भविष्यन्ति। विदेशमन्त्री डॉ एस जयशंकर ह्यः नवदिल्ल्यां श्रीलंकायाः प्रधानमन्त्रिणा डॉ हरिणी अमरसूर्या इत्यनया सह मेलनम् अकरोत्। एकस्मिन् सामाजिक सन्देशे डॉ जयशंकर अकथयत् यत् सः श्रीलंकायै भारतस्य समर्थनं शिक्षा निर्माण क्षेत्रयोः परस्पर सहयोगं च विधातुं चर्चाम् अकरोत्। भारत ऋतु विभागेन अद्य केरल, माहे, लक्षद्वीप, तमिलनाडु, पुदुच्चेरी, करैकल प्रदेशेषु अतिवृष्टेः नारंगवर्णीय संचेतना प्रदत्तास्ति। विभागेन आन्ध्रप्रदेशे, तटीय कर्णाटके, दक्षिणान्तरिक कर्णाटके च प्रचण्ड वृष्टेः पूर्वानुमानं कृतमस्ति इति वार्ताः।